इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य एकदिवसीय आन्ध्रप्रदेश कर्णाटक यात्रायां भविष्यति। आन्ध्रप्रदेशे प्रधानमन्त्री भोगापुरम् इत्यत्र अल्लूरी सीताराम राजु अन्ताराष्ट्रिय विमानस्थानकस्य उद्घाटनं करिष्यति। सार्वजनिक निज सहभागिता प्रारूपस्यान्तर्गतं 600,000,500,000,000,000 रूप्यकाधिकेन व्ययेन निर्मितं तदन्ताराष्ट्रिय विमानस्थानकं प्रतिवर्षं 60,00,000 यात्रिणां सेवा प्रदातुं विनिर्मितमस्ति। प्रधानमन्त्री 80,000,800,000,000 रूप्यकाधिक व्ययुता राष्ट्रिय राजमार्ग परियोजना राष्ट्राय समर्पयिष्यति। तासां शिलान्यासम् अपि करिष्यति। आन्ध्रप्रदेश यात्रानन्तरं प्रधानमन्त्री कर्णाटकस्य मैसूरनगरं गमिष्यति, यत्र स्वामी विवेकानन्द सांस्कृतिक युवक केन्द्रस्य विवेक स्मारकस्य उद्घाटनं करिष्यति। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् अपशब्द प्रयोग द्वेष भावना च कस्यापि समस्याया समाधानं न भवतः। असौ मार्गभ्रष्टेभ्यः युवभ्यः करुणाभावम् आवहन् अवदत् यत् ते दण्डनीयाः न, अपि तु राष्ट्रनिर्माणस्य राष्ट्रहितस्य च भावनया सम्यक् मार्गे प्रेरणीयाः। सामाजिक सञ्चारपटलेषु प्रसारिते एकस्मिन् दृश्य श्रव्य सन्देशे प्रधानमन्त्री राष्ट्रिय राजधान्याः जन्तर्मन्तरस्थले सद्यः एव जातायाः तस्याः घटनायाः उल्लेखमकरोत्, यस्मिन् तस्मै तस्य दिवंगतमात्रे च अपशब्दाः प्रयुक्ताः आसन्। सः अवदत् यत् एषा घटना देशविदेशेषु बहुभिः जनैः दृष्टा। एतादृशस्य आचरणस्य विषये समाजे विद्यमानः आक्रोशः निराशा च स्वाभाविकौ स्तः। प्रधानमन्त्री अवदत् यत् एतादृशान् युवकान् न्यायालयीय प्रक्रियासु न निवेशयेत्, सामाजिक तिरस्कारस्य भाजनं वा न कुर्यात्, अपि तु समाजेन तान् सस्नेहं स्वीकृत्य सम्यक् मार्गः प्रदर्शनीयः।
बचपन में गलतियां होती है और बचपन में गलतियों से सुधरने का अवसर भी होता है। एक गुमराह बच्चे हैं, उनको राह दिखाना हमारा काम है। उनको सजा देना, अदालतों के चक्कर कटवाना, समाज में उनको प्रताड़ित करना, इससे हम परिस्थितियां नहीं बदल पाएंगे। मैं उन्हें माफ करना चाहता हूं, समाज भी मेरी इस बात को स्वीकार करे। मैं इन बच्चों को कहता हूं, बच्चों आओ, हम देश के लिए साथ मिलकर के आगे बढ़े। देश बहुत आगे बढ़ रहा है, आगे बढ़ने वाला है और आपका भी आगे बढ़ना निश्चित हो, यही मेरा सपना है।
केंद्रीय मंत्रिमंडलेन प्रधानमंत्री सूर्य सरोवर योजना अनुमोदिता। एषा योजना ऊर्जा संचयन प्रणालीभिः युक्तानां फ्लोटिंग सोलर फोटोवोल्टिक इति परियोजनानां विकासाय प्रवर्तिता अस्ति। केन्द्रीय मन्त्रिमण्डलस्य उपवेशनानन्तरं नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् अस्याः योजनायाः अन्तर्गतं 5,000 मेगावाट मितानां क्षमतायुतानां फ्लोटिंग सोलर फोटोवोल्टिक इति परियोजनानां विकासः भविष्यति। ताभिः सह स्थापितानां ऊर्जा संचयन प्रणालीनां न्यूनतम संचयन क्षमता द्विहोरात्मिका भविष्यति। केन्द्रीय मन्त्रिमण्डलेन प्रधानमन्त्री किसान सम्मान निधि योजनायाः अस्मात् वर्षात् 31,000,000,000 प्रवर्तनस्य निरन्तरतायै अपि अनुमोदनं प्रदत्तम्। भारतम् अवदत् यत् पाकिस्तानाधिकृतस्य जम्मूकश्मीर प्रदेशस्य तथा कथितानि निर्वाचनानि पाकिस्तान प्रशासनस्य अपमानास्पदम् एव सन्ति। नवदिल्ल्यां वार्ताहरैः सह वार्तालापं कुर्वन् विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः अवदत् यत् पाकिस्तानस्य प्रशासनं पीओजेके इत्यत्र शान्तिप्रियाणां नागरिकाणां विरुद्धं निष्ठुरं बलप्रयोगं निरन्तरं करोति। विदेशमन्त्री डॉ एस जयशंकरः गतसायं ईरानदेशस्य विदेशमन्त्रिणा अब्बास अराघची इत्यनेन सह दूरभाषया वार्तालापम् अकरोत्। अस्मिन् वार्तालापे सः अस्मिन् क्षेत्रे प्रवर्तमानायाः शत्रुतायाः विषये भारतस्य गभीरां चिन्तां प्रकटितवान्। राष्ट्रमण्डल क्रीडासु भारतस्य पदकसंख्या 23 यावत् वर्धिता, यस्मिन् 5 स्वर्णपदकानि, 12 रजतपदकानि, 6 कांस्यपदकानि च सन्ति। इति वार्ताः।